इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचको नरेन्द्रदत्तः सेमवालः। आदौ मुख्यवार्ताः। केन्द्रीयमन्त्रिमण्डलेन अद्य जलजीवनमिशन् इति अभियानम् 28,000,000 दिसम्बर मासं यावत् वर्धयितुं स्वीकृतिः प्रदत्ता। एलपीजी इत्यस्य उत्पादनं वर्धयितुं गृहोपभोक्तृभ्य चिकित्सालयेभ्य शिक्षणसंस्थानेभ्य च अस्य आपूर्तिं प्रथमं प्रदातुं च तैलनिर्मातृसंस्थानैः विशिष्टाः पदक्षेपाः उत्थापिताः सन्ति। लोकसभायां लोकसभाध्यक्षम् ओम बिरला वर्यं पदच्युतं कर्तुं प्रस्तावे चर्चा समारब्धास्ति। सर्वोच्च न्यायालयेन भारतस्य निर्वाचनायोगः पश्चिम बंगाल सर्वकारः च राज्य निर्वाचक सूच्यां प्रचलिते विशिष्ट गहन संशोधने संलग्नानां न्यायिक अधिकारिणां कृते पूर्णव्यवस्थात्मक समर्थनं दातुम् आदिष्टौ। अपि च स्विस ओपन बैडमिंटन क्रीडास्पर्धा अद्य स्विट्जरलैंड देशस्य बासेल इत्यत्र आरप्स्यते। अथ वार्ताः विस्तरेण। केन्द्रीयमन्त्रिमण्डलेन अद्य जल जीवन मिशन इति अभियानम् 28,000,000 दिसम्बर मासं यावत् वर्धयितुं स्वीकृतिः प्रदत्तास्ति। नवदिल्ल्यां प्रसारमाध्यमैः सह वार्तां कुर्वन् सूचना प्रसारणमन्त्री अश्विनी वैष्णवः अकथयत् यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य अध्यक्षतायां केन्द्रीयमन्त्रिमण्डलेन अद्य जलशक्ति मन्त्रालयस्य तदीयं प्रस्तावं स्वीकृतमस्ति, यस्मिन् जल जीवन मिशन इति अभियानम् अवसंरचनायै प्रयोक्तुं सेवा प्रदाने परिवर्तयितुं प्रख्यापितुं च पुनः कार्यं समारब्धुं प्रस्तावितः अस्ति। हिंदुस्तान पेट्रोलियम कॉर्पोरेशन लिमिटेड भारत पेट्रोलियम च अकथयतां यत् एलपीजी इत्यस्य उत्पादनं वर्धयितुं गृहोपभोक्तृभ्य चिकित्सालयेभ्य शिक्षणसंस्थानेभ्य च अस्य आपूर्तिं प्रथमं प्रदातुं च विशिष्टाः पदक्षेपाः उत्थापिताः सन्ति। एकस्मिन् सार्वजनिक संजालीय सन्देशे तैलसंस्थानानि अकथयन् यत् औद्योगिकक्षेत्राणां याचनाम् ऑयल मार्केटिंग संस्थानानाम् अध्यक्षाणां च एका समितिः पुनरालोकयिष्यति। तैल निर्मातृ संस्थानानि अकथयन् यत् अन्य क्षेत्राणाम् आवश्यकतायै निर्मितायै समितये इंडिया NECARHO@IndianOil.in, EDLPG@BharatPetroleum.in, LPG.SBU.HEAD@HPCL.in इत्यादिषु ईमेल माध्यमेन सूचनां प्रदातुं शक्यते। लोकसभायां लोकसभाध्यक्षम् ओम बिरला वर्यं पदच्युतं कर्तुं प्रस्तावे चर्चा समारब्धास्ति। कांग्रेस दलस्य सांसदः डॉ मोहम्मद जावेद इत्यसौ एतं प्रस्तावं प्रस्तुतवान्। यदा सदनं प्रथम स्थगनानन्तरं अपराह्णे 12 समारब्धं, सः अकथयत् यत् बिरला वर्येण विपक्षस्य नेतृन् सदने वक्तव्य स्थापनस्य अवसरं न प्रायच्छत्, अपि च विपक्षिदलानां महिला सांसदाः विरुध्य अपि मिथ्यारोपाः प्रख्यापिताः सन्ति। सः अकथयत् यत् बिरला वर्यः सदने समेषां वर्गाणां विश्वासं जेतुमपि असमर्थः आसीत्। तरुण गोगोई इत्यसौ अकथयत् यत् एषः प्रस्तावः सदनस्य गरिमायाः रक्षायै प्रख्यापितः अस्ति, न तु वैयक्तिकरूपेण बिरलावर्यं विरुध्य। सर्वोच्च न्यायालयेन भारतस्य निर्वाचनायोगः पश्चिम बंगाल सर्वकारः च राज्ये निर्वाचक सूच्यां प्रचलिते विशिष्ट गहन संशोधने संलग्नानां न्यायिक अधिकारिणां कृते पूर्ण व्यवस्थात्मक समर्थनं दातुम् आदिष्टौ। भारतस्य मुख्य न्यायाधीशः सूर्यकान्तः इत्यस्य नेतृत्वे न्यायाधीशत्रयस्य पीठ अवदत् यत् न्यायिक अधिकारिणः पूर्वमेव मतदात्री सूचीतः निष्कासनस्य जनानां 10,00,000 अधिकान् आक्षेपान् अभियोगाञ्च सम्मुखीकृतवन्तः। वाणिज्योद्योगमन्त्री पीयूषगोयलवर्यः अद्य नवदिल्ल्याम् आहार अन्ताराष्ट्रिय खाद्य आतिथ्य मेलकम् इत्यस्य 44वां संस्करणम् उद्घाटितवान्। खाद्य संस्करण उद्योग मंत्रालयेन भारत व्यापार प्रोत्साहन संघटनेन च सम्मिल्य अस्य मासस्य 10 दिनांकतः 14 दिनांकपर्यन्तं संयुक्त रूपेण अस्य मेलकस्य आयोजनं क्रियते। प्रसारमाध्यमैः सह वार्तालापं कुर्वन् मन्त्रिवर्यः आत्मविश्वासं प्रकटितवान् यत् एतादृशानि प्रदर्शनानि भारताय लाभप्रदानि भविष्यन्ति। अद्यत्वे भारतं विश्वस्य 7वां बृहत्तमः निर्यातकः अस्ति इत्यपि मन्त्रिवर्यः प्रोक्तवान्। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज़ ऑन एआईआर इति चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। केन्द्रीय कृषि मंत्री शिवराज सिंह चौहानः अवदत् यत् विगत दशवर्षेषु देशे खाद्यान्नस्य उत्पादनं 44% मितं वर्धितम् अस्ति। श्री चौहान अद्य लोकसभायां प्रश्नोत्तरकाले अनुपूरकानां उत्तरं प्रायच्छत्। सः अवदत् यत् प्रधानमंत्री नरेन्द्र मोदी वर्यस्य नेतृत्वे कृषकाणां लाभाय खाद्य धान्यानां उत्पादनं वर्धयितुं च अनेकाः कृषि कार्योद्धार नीतयः च आनीताः सन्ति। मन्त्रिवर्यः अवदत् यत् भारतं चीनदेशम् अतिक्रम्य विश्वस्य बृहत्तमं तण्डुलोत्पादकम् अभवत्। श्री चौहान अवदत् यत् खाद्यान्नस्य उत्पादनस्य सन्तुलितवृद्धिं सुनिश्चेतुं सम्पूर्णे देशे शतमण्डलेषु प्रधानमन्त्री धनधान्ययोजना प्रवर्तिता अस्ति। सः अवदत् यत् पश्चिमबङ्गसर्वकारेण इयं योजना न प्रवर्तिता। मन्त्रिवर्यः अवदत् यत् राज्यस्य चत्वारि मण्डलानि पुरुलिया, दार्जिलिङ्ग्, अलीपुरद्वार, झारग्राम च अस्य कार्यक्रमस्य अन्तर्गतं कृषकाणां साहाय्यं कर्तुं उत्पादनं वर्धयितुं च विचितानि सन्ति।
मैं बड़ी तकलीफ के साथ ये कहना चाहता हूं कि इतनी महत्वपूर्ण योजना को पश्चिम बंगाल की सरकार ने लागू नहीं किया है, ये पाप किया है। पश्चिम बंगाल के चार जिले जिनके साथ ये सरकार अन्याय कर रही है पश्चिम बंगाल की।
श्री चौहान अवदत् यत् कृषकाणां कृते उर्वरकं सुलभं कर्तुं केन्द्रेण गतवर्षे 1.68 लक्ष कोटि रूप्यकाणां उर्वरकस्य अनुदानं प्रदत्तमस्ति। राष्ट्रिय शैक्षणिक अनुसंधान प्रशिक्षण परिषदा अष्टम कक्षायाः नवप्रकाशितस्य पुस्तकस्य द्वितीय भागस्य प्रकाशनं निरस्तीकृतमस्ति, यस्मिन् द रोल ऑफ जुडिशियरी इन अवर सोसाइटी इत्याख्य चतुर्थः पाठः सम्मिलितः आसीत्। सार्वजनिक रूपेण क्षमायाचनं कुर्वता परिषदा प्रोक्तं यत् समग्रमपि प्रकाशितं पुस्तकम् अधुना निरस्तीकृतमस्ति। अमेरिका देशस्य राष्ट्रपतिना डोनाल्ड ट्रम्पः इत्यनेन रूस देशस्य राष्ट्रपतिना व्लादिमीर पुतिन इत्यनेन सह दूरभाषेण वार्तालापः कृतः। पुतिन वर्यस्य कूटनीतिक परामर्शितः यूरी उशाकोव इत्येषः अवदत् यत् दिसम्बर मासात् आरभ्य प्रथमायां वार्तायां द्वयोः मध्ये एकहोरायाः वार्तालापः अभवत्। वाशिङ्गटनं च चर्चायै याचितवान्। उशाकोवः इत्ययम् अवदत् यत् राष्ट्रपतिः पुतिनः ईरान देशं विरुध्य अमेरिका इज़राइलयोः प्रहारस्य उपशमनं विधातुं त्वरित राजनैतिक कूटनीतिकं च समाधानस्य आह्वानम् अकरोत्। भारतीय निर्वाचन आयोगेन अद्य प्रातः कोलकाता नगरे राज्य मुख्य निर्वाचन अधिकारिणा राज्यारक्षकाणां केन्द्रीय आरक्षित आरक्षकाणां नोडल अधिकारिणा च सह निर्वाचन सज्जताये उपवेशनं विहितमस्ति। आयोगः इदानीं पश्चिमबंग सर्वकारस्य मुख्य सचिवेन DGP इत्यनेन अन्यैः वरिष्ठैः अधिकारिभिः च सह मेलनं कुर्वन् अस्ति, यस्य अनन्तरं निर्वाचन केन्द्रस्तरीयै अधिकारिभिः सह संवादः वार्तालापः च भविष्यति। मुख्य निर्वाचन आयुक्तेन ज्ञानेश कुमारेण सह निर्वाचन आयोगस्य पूर्णपीठं पश्चिम बंगाल राज्यस्य विधानसभा निर्वाचनस्य पूर्वं निर्वाचनस्य सज्जतायाः समीक्षणार्थं रविवासरे सायंकाले कोलकाता नगरं समागच्छत्। यः आयोगस्य पूर्णपीठं निर्वाचन प्रक्रियायाः कृते परामर्शान् संगृहीतुं मान्यैः राष्ट्रिय राज्य राजनैतिक दलैः सह उपवेशनम् अकरोत्। भारतीय ऋतु विज्ञान विभागेन अद्य जम्मू कश्मीर, लद्दाख, मुजफ्फराबाद प्रदेशेषु प्रचंड वृष्टेः पूर्वानुमानं कृतमस्ति। बिहार राज्ये, पश्चिम बंगाल राज्ये, अरुणाचल प्रदेशे, केरले च विद्युत प्रवाहेण सह झांझावातस्य संभावना विभागेन अनुमिता अस्ति। क्रीडकः अनंत राणा इत्यसौ न्यूजीलैंड देशस्य टुपो नगरे आयोजितं फुल आयरमैन न्यूजीलैंड ट्रायथॉन इति क्रीडायां 55 निमेषाधिक 11 होरासु तरणं, द्विचक्रिका चालनं, धावनं चेति क्रीडात्रयं समाप्य इतिहासम् अरचयत्। टाटा स्टील एडवेंचर फाउंडेशन इत्यनेन सह सम्बद्ध झारखंड राज्यस्य जमशेदपुर नगरस्य सोनारी क्षेत्रस्य 33 वर्षीय 3.8 किलोमीटर परिमितं तरणं, 80% किलोमीटर परिमितं द्विचक्रिका चालनं च अकरोत्। स्विस ओपन बैडमिंटन क्रीडा स्पर्धा अद्य स्विट्जरलैंड देशस्य नगरे बासेल इत्यत्र आरप्स्यते। इति वार्ताः।